युद्धं कुरु त्वं जहितौ मया वृषं सम्मोहितौ अक्र दृशेत्ययं त्वया संचोदितो हृष्ट मनमहर्णवे तस्तौ रणायाय यदुष्यदानवौ भूयोऽपि कुर्वन् रणमुच्युतो वा हसन् कामातुरौ ते मुखपद्मदर्शनात् तावा दुष्टोऽस्म्यतुलौ रणे युवां तदां ह्यहं वां वरमेष वाञ्छितम्।